नमः ब्रह्मेशानच्युतेशाय सूर्यायादित्यवर्चसे भास्वते सर्वभक्षाय रौद्राय वपुषे नमः
तमोज्ञाय दिवाज्ञाय शत्रुज्ञानामितात्मने कृतज्ञज्ञान देवाय ज्योतिषामतये नमः
तप्तचामीकराभाय वन्दये विश्वकर्मणि नमस्तमोऽभिनिज्ञाय रुचये लोकसाक्षिणि नाश्यत्येष वैभूतम् तदेव सृजति प्रभुः पायत्येष तपत्येष वर्षत्येष गभस्थिभिः येष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः येष येवाग्निहोत्रम् च फलम् चैवाग्निहोत्रिणाम् वेदाश्च कृतवश्चैव कृतूनाम् फलमेव च यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः
येन मामस्तु कृष्टेषु आङ्कारेषु भरेषु च कीर्तयन् पुरुष कश्चन् नावसीदतिराघव
पूज्यस्वैनामेकाग्रो देवदेवम् जगत्पतिम् एतत् त्रिगुणितम् जप्त्वा युद्धेषु विजयिष्यसि अस्मिन् क्षणो महाबाहो रावणम् त्वम् विधिष्यसि एवमुक्त्वा तदागस्त्यो जगाम च यथागतम् एतत् श्रुत्वा महातेजा नष्ट शोको भवत्तदा एतत् श्रुत्वा महातेजा नष्ट शोको भवत्तदा धारयामास सुप्रीतो राघव प्रयतात्मवान् आदित्यम् प्रेक्षयत् जप्त्वा तु परम् हर्षमवाप्तवान् तिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान्
रावणम् प्रेक्ष दृष्ट्वा युद्धाय समुपागमान् सर्वयत्नेन महतावदे तस्य द्वितो भवत्
अथ रवीरवदनिरीक्ष्य रामम् मुदितमनाः परमम् प्रहृष्यमाणः निशिचरपदे संक्षयम् विदित्वा सुरगणमध्यगतो वचस्वरे